अथ अष्टम स्कंध
अथ षष्ठोध्याय देवताओं और दैत्यों का मिलकर समुद्र मंथन के लिए उद्योग करना। श्री शुक उवाच एवं स्तुत सुरगणैर् भगवान हरिश्वर तेषामाविर्भूतराजन् सहस्रार्कोदयद्युतिः तेनैव महसा सर्वे देवाः प्रतिहते क्षणः न पश्यन् खं दिशः क्षोणीम् आत्मानं च कुतो विभुम् विरिञ्चो भगवान् दृष्ट्वा स सर्वेण तां तनुम् स्वच्छाम्बर्कतश्यामाम् कञ्जगर्भारुणेक्षणाम् तप्त हेमावदातेन लसत् कौशेयवाससा प्रसन्न चारु सर्वांगीं सुमुखीं सुंदर भ्रुवम् महामणि किरीटेन केयूराभ्याम् च भूषिताम् कर्णाभरण निर्भात कपोल श्रीमुखाम्बुजाम् कांची कलाप बलया हार नूपुर शोभिताम् कौस्तुभाभरणाम् लक्ष्मीम् बिभ्रतीम् वनमालिनीम् सुदर्शनाद्भिः स्वाश्रय मूर्तिमद्भिरुपासिताम् तुष्टावदेव प्रवर सर्वः पुरुषम् परम् सर्वामरगणैः साकम् सर्वाङ्गैरवनीम् गतैः। ब्रह्मोवाच अजात जन्म स्थित संयमाय गुणाय निर्वाण सुखार्णवाय अणोरणिम् मे परिगण्य धाम्ने महानुभावाय नमो नमस्ते। रूपम् तवैतत् पुरुषर्षभेज्यम् श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण योगेन धातः सहनस्त्रिलोकान् पश्याममुस्मिन्नुह विश्वमूर्तौ। त्वय्यग्रयासीत् त्वयि मध्ययासीत् त्वय्यन्तयासीदिदमात्मतन्त्रे त्वमधिरन्तो जगतोऽस्य मध्यम् घटस्मृतस्नेव परः परस्मात्। त्वम् माययात्मा श्रया स्वयेदम् निर्माय विश्वम् तदनु प्रविष्टः। पश्यन्ति युक्ता मनसा मनीषिण गुण व्यवायेऽप्यगुणम् विपश्चितः। यथाग्निमेध समृतम् च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम् योगैर्मनुष्या अधियन्ति हि त्वाम् गुणेषु बुद्ध्या कवयो वदन्ति। तम् त्वाम् वयम् नाथ समुज्जिहानम् सरोजनाभाति चिरेप्सितार्थम् दृष्ट्वा गता निर्वृतिमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भ। स त्वम् विधत्स्वाखिल लोकपाला वयम् जदर्थास्तव पादमूलम् समागतास्ते बहिरन्तरात्मन् किं वान् विज्ञापमशेष साक्षिणः। अहम् गिरित्रश्च सुरादयो ये दक्षादयोग्नेरिव केतवस्ते किं वा विदामेश पृथग् विभाता विधात् स्वशम्नो द्विजदेव मन्त्रम्। श्री शुक उवाच एवम् विरिञ्चादिविरीडितस्तद् विज्ञाय तेषाम् हृदयम् तथैव जगादजीमूत गभीरया गिरा बद्धाञ्जलिन् संवृत सर्वकारकम्। एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः विहर्तु कामस्तानाः समुद्रोन्मथनादिभिः। श्रीभगवान् उवाच हन्त ब्रह्मन् अहो शम्भो हे देवा मम भासितम् श्रुता वहिता सर्वे श्रेयो वा स्याद्यथा सुरः। यात दानव दैतेयस्तावत् सन्धिर्विधीर्यताम् कालेनानुगृहीतैस्तैर्यावदो भव आत्मनः। अरयोऽपि हि सन्धेया सति कार्यार्थ गौरवे अहिमुषकवद्देवा ह्यर्थस्य पदवीम् गतैः। अमृतोत्पादने यत्न क्रियतामविलम्बितम् यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तो मरो भवेत्। क्षिप्त्वा क्षीरोद्धौ सर्वा वीरुत्तृणलतौषधिः मन्थानम् मन्दरम् कृत्वा नेत्रम् कृत्वा तु वासुकिम्। सहायेन मया देवा निर्मन्थध्वमतन्द्रिता क्लेशभाजो भविष्यन्ति दैत्या यूयम् फलग्रहा। यूयम् तदनुमोदध्वम् यदीक्षन्तसुरः सुरः न संगम्भेण सिद्ध्यन्ति सर्वेथा सांत्वया यथा न भेतव्यम कालकूटाद् विषाद् जलधि संभवात् लोभ कार्यो नो जातु रोषः कामस्तु वस्तुषु। श्री शुक उवाच इति देवान् समादिश्य भगवान् पुरुषोत्तमः तेषामन्तर्दधे राजन् स्वच्छन्द गतिरीश्वरः। अथ तस्मै भगवते नमस्कृत्य पितामहः भवश्च जग्मतु स्वं स्वं धामो पेयुर्बलिं सुरः। दृष्ट्वा रिनप्यसंयत्तान् जातक्षोभान् स्वनायकान् न्यसेध दैत्यराट् श्लोक्य सन्धि विग्रह कालवीत्। ते वैरोचनिमासीनम् गुप्तम् चासुरजुत्थपहे श्रिया परमया जुष्टम् जिता शेषमुपागमन्। महेन्द्रः सुलक्षणया वाचा शान्तयित्वा महामति अभ्यभाषत् तत्सर्वम् शिक्षितम् पुरुषोत्तमात्। तदरोचत दैत्यस्य तत्रान्ये येसुराधिपः शम्बरोरिष्टनेमिश्च ये च त्रिपुरवासिनः। ततो देवासुरः कृत्वा संविदम् कृतसौहृदः उद्यमम् परमम् चक्रुरमृतार्थे परम् तप। ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदः नदन्त उदधिम्निन्यु शक्तः परिघबाहवः। दूरभारोद्वः श्रान्तः शक्रवैरोचनादयः अपारयन्तस्तम् वोढुम् विवशा विजहुः पथि। निपतन् स गिरिस्तत्र बहुनमरदानवान् चूर्णयामास महता भारेण कनकाचलः। तांस्तथा भग्नमनसो भग्नबाहुरुकन्धरान् विज्ञाय भगवांस्तत्र बभूव गरुणध्वजः। गिरिपात विनिष्पिष्टान् विलोक्यामरदानवान् इच्छया जीवयामास निर्जरान् निर्व्रणान् यथा। गिरिम् चारोप्य गरुणे हस्ते नैकेन लीलया आरुह्य प्रयावब्धिम् सुरासुरगणैर्वृतः। अवरोप्य गिरिम् स्कन्धा सुपर्णः पत्ताम्बरः ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् अष्टमस्कन्धे अमृतमथने मन्द्राचलानयनम् नाम षष्ठोऽध्यायः।